स्मरामि भो भीतिहरं सुरेशं गंगाधरं वृषवाहनमम्बिकेशं खटवाङ्गशूलवरदाभयहस्तमीशम् संसाररोगहरमौषधं द्वितीयम् प्रार्थनमामि गिरिशं गिरिजार्धदेहम् सर्गस्थतिप्रलयकारणमादिदेवम् विश्वेश्वरं विजितविश्वमनोभिरामम् संसाररोगहरमौषधं द्वितीयम् प्रार्थ भजामि शिवमेकमनन्तमाघम् वेदान्त वेदमनघं पुरुषं महान्तम् नमादि भेदरहितं षट्भावशून्यम् संसाररोगहरमौषधं द्वितीयम् प्रार्थः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं ये अनुदिनं पठन्ति ते दुःखजातं बहुजन्मसञ्चितं हित्वा पदं यान्ति तदेव शम्भुः।